एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणा बालेन्द्र शाहेन ह्य लुम्बिनी प्रदेशस्य सांसदै सह विमृष्टमस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये आयोजिते विमर्शने प्रदेशे अग्रेसारितानां विकास आयोजनानां तासां क्रियान्वयने संघस्य प्रदेशानां स्थानीय स्तराणां च मध्ये समन्वयस्य च विषये सामयिक राजनीतिक विषयेष् च विमृष्टमासीत्। विमर्शने सांसद सम्पन्न निर्माणानां आयोजनानां संचालनाय संघस्य प्रदेशानां च मध्ये विधातव्यं सहकार्यं प्रभावपूर्णं विधातुं विकासायोजनानां क्रियान्वयनस्य कार्याय तीव्रतां प्रदातुं जनानाम् अपेक्षां सम्बोधयितुं च बलं दत्तवन्तः। सांसदः सम्बद्धक्षेत्राणां समस्यानां पूर्वाधारविकासस्य वित्तविनियोजनस्य सेवाप्रवाहस्य च विषयेष् प्रधानमन्त्रिणः समक्षं धारणां व्यक्तवन्तः। प्रधानमन्त्रिणा शाहेन प्रदेशगतरूपेण सांसदै सह नैरन्तर्येण संवादः विधीयमानोऽस्ति। सभामुखः डोलप्रसाद अर्यालः निगदति संसदि स्वकीय भूमिका निष्पक्षं भविष्यति। प्रतिनिधिसभायाः स्तनोपवेशे सभामुखस्य पदम् उच्चस्तरीयं विधातुं तटस्था निष्पक्षा समन्वयपूर्णा च भूमिका निरूह्यते इति अगदत्। सभामुख अर्यालः सर्वेषां समन्वयेन संसदः गरिमा वृद्धौ दैविध्यं नास्तीति चर्चयन् तत्र स्वकीया भूमिका निष्पक्षं भवति, संसदि दलेष् संख्यायाः कारणेन विभेदो न भविष्यति इति च प्रावोचत्। सभामुखस्य निष्पक्षतायां स्वतन्त्रतायां च संसदः सांसदानां च गरिम्नः वृद्धिर्भविष्यति इति विश्वासं प्रदाय सभामुखः अर्यालः सभायाः संचालने सर्वेषां रचनात्मकस्य परामर्शस्य क्रियाशीलतायाः समन्वयस्य च अपेक्षा विहितास्ति इति प्रावोचत्। सभामुखपदे निर्वाचनानन्तरं सभामुखेन अर्यालेन ह्य प्रथमवारं सभायाः संचालनं विहितं वर्तते। प्रतिनिधिसभातः त्रयः अध्यादेशाः स्वीकृताः सन्ति। सभायाः स्तनोपवेशेन एतद्विक्रमवर्षीयाः मतदातृनामावली सम्बद्ध प्रथम संशोधनाध्यादेशः, प्रतिनिधिसभासदस्य निर्वाचन सम्बद्धः प्रथम संशोधनाध्यादेशः, नेपाल विशेष सेवा सम्बद्ध द्वितीय संशोधनाध्यादेशश्च सर्वसम्मत्या स्वीकृताः सन्ति। उपवेशे गृहमन्त्रिणा सुधन गुरूङ इत्यनेन एते अध्यादेशाः स्वीक्रियन्तामिति निगद्य प्रस्तावः प्रस्तुतः आसीत्। अत्रान्तरे प्रतिनिधिसभायाः नवीनां नियमावलिं निर्मातुं पञ्चदश सदस्यात्मिका समितिः संघटिता अस्ति। सभायाः स्तनोपवेशे सांसदेन कविन्द्र बुर्लाकोटी इत्यनेन प्रस्तुतस्य प्रस्तावस्य अनुसारेण सांसदस्य गणेश पराजुली इत्यस्य सभापतित्वे सर्वेषां दलानां सदस्यैः सम्मिलिता समितिः सर्वसम्मत्या संघटिता अस्ति। समितये चतुर्दश दिनानां समयावधि दत्तोऽस्ति। प्रतिनिधिसभायाः स्तनोपवेशे सभामुखेन डोलप्रसाद अर्यालेन प्रतिनिधिसभायाः कार्यव्यवस्था परामर्श समितेः सदस्याः नियुक्ताः वर्तन्ते। सभायाः विशेष समये राष्ट्रिय स्वतन्त्र दलस्य सांसदौ कविन्द्र बुर्लाकोटी मनीष झा च, नेपाली कांग्रेस दलस्य सांसद अर्जुन नरसिंह केसी, नेकपा एमाले दलस्य सांसदौ ऐनबहादुर महर विष्णुमाया विक च, नेपाली कम्युनिष्ट दलस्य सांसद युवराज दुलाल, श्रम संस्कृति दलस्य सांसद ध्रुवराज राई, राष्ट्रिय प्रजातन्त्र दलस्य सांसद खुशबू ओली च स्वकीयां धारणां व्यक्तवन्तः। प्रतिनिधिसभायाः अपरोपवेश अद्य दिवा एकवादने सति। राष्ट्रियसभायाः उपाध्यक्षपदे नेकपा एमाले दलस्य सांसद लीला कुमारी भण्डारी निर्विरोधं निर्वाचिता अस्ति। राष्ट्रियसभायाः स्तनोपवेशे अध्यक्षः नारायण प्रसाद दाहालः सांसद भण्डारी राष्ट्रियसभायाः उपाध्यक्षपदे निर्विरोधं निर्वाचिता अस्ति इति उदघोषयत्। सांसदं भण्डारिणम् उपाध्यक्षपदे नियोक्तुं राष्ट्रियसभायाः सदस्येन प्रेम प्रसाद दंगालेन प्रस्तावः प्रस्तुतः आसीत्। उपवेशेन प्रधानमन्त्रिणः बालेन्द्र शाहविदस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा शोभिता गौतम इत्यनया गतार्थिक वर्षस्य आदिवासी जनजाति आयोगस्य वार्षिकं प्रतिवेदनं प्रस्तुतमासीत्। तत्पूर्वम् उपवेशे सांसदः युद्धस्य कारणेन खातीय राष्ट्रेषु विद्यमानानां नेपाली श्रमिकाणां सुरक्षायाः सुरक्षिततया स्वदेशं प्रति प्रत्यावर्तनस्य च विषयेष् कौचनीतिकरूपेण प्रयत्नं प्रयत्नं विधातुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रसभायाः परोपवेशः श्वः बुधवासरे दिवासपादैकवादने वस्ता। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयेन चतुस्सप्तत्यधिक 2000 विक्रम वर्षीय श्रमाधिनियमस्य प्रचलित विधेयस्य अनुसारेण प्रदातव्यस्य न्यूनतम पारिश्रमिकस्य सामाजिक सुरक्षा सम्बद्ध व्यवस्थायाश्च पूर्णतः परिपालनाय सम्पूर्ण वृत्ति प्रदायक संस्था अनुरुद्धा वर्तन्ते। मन्त्रालयेन ह्यो विज्ञप्तिं प्रकाश्य अधिनियमस्य विपरीततया न्यूनतम पारिश्रमिकादि सेवा सौविध्यादिभ्य वञ्चितेषु कृतेषु प्राप्तेष् प्रचलित विधेरनुसारेण दण्डयिष्यन्ते इति ज्ञापयता विधेये स्वतस्फूर्ततया पालनां कर्तुं सम्बद्ध प्रतिष्ठानानि संस्थाः सम्बद्ध निकायाश्च अनुरुद्धा वर्तन्ते। चतुस्सप्तत्यधिक 2000 विक्रम वर्षीये श्रमाधिनियमे श्रमिकेभ्य वृत्ति प्रदायक संस्थाभिः न्यूनतम पारिश्रमिकस्य रुग्णावकाशस्य उपादानस्य संचयकोषस्य जीवन सुरक्षण कोषस्य च अनिवार्यतया प्रदानस्य स्पष्ट विधिगत व्यवस्था वर्तते। सर्वकारेण फेवारदस्य परितः विद्यमानायाः भूमेः वर्तमानावस्थायाः ज्ञानाय पञ्चसदस्यीय अनुसन्धान समितिः संघटिता वर्तते। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रालयेन भूमि व्यवस्थाभिलेख विभागस्य महानिर्देशकस्य संयोजकत्वे पञ्चसदस्यीया समितिः संघटिता अस्ति। समित्या फेवारदस्य परितः विद्यमानायाः रद परिसरस्य भूमेः वर्तमानावस्थायाः तत्र निर्मितानां संरचनानां च अध्ययनं करिष्यते। सहैव फेवारदस्य क्षेत्रस्य अभ्यन्तरे विद्यमानाया भूमेः यथार्थ विवरणं संकलय्य तस्य अभिलिखीकरणस्य कार्यं च करिष्यते। समित्यै एतत् कार्याय सप्ताहानां दिनानाम् अवधि निर्धारितोऽस्ति इति मन्त्रालयेन ज्ञापितम् वर्तते। अत्रान्तरे गृहमन्त्रिणा सुदन गुरुङ इत्यनेन कास्की जनपदस्य फेवारदस्य भूमेः प्रकरणे आत्मानं वञ्चीकृतमस्तीत्यतः विधेय उपचारस्य अवलम्बनं क्रियते इति स्पष्टीकृतम् वर्तते। इति समाचारः।